नमस्कारः। इदानीं वृत्तसञ्जीवननाटकस्य तृतीयम् अङ्कं पठामः। ततः पूर्वं द्वितीय अङ्कस्य कथाम् एकवारं स्मृत्वा तृतीयम् अङ्कं पठामः। भवती द्वितीय अङ्कस्य कथां संक्षेपेण वदति वा?
इन्द्रः बृहस्पतेः आश्रमपदम् आगच्छति। तदा तत्र कचम् अध्ययनपरं पश्यति सः। तदा इन्द्रकचयोः संवादः समारब्धः। प्रथमं कचः देवानां सौख्यं पृच्छति। तदा इन्द्रः
देवानाम् अमरत्वसम्पादनार्थं कचस्य साहाय्यम् अपेक्षते।
ततः कचः प्रथममेव अमृतं तु सम्पादितं किल, पुनः इदानीम् अमृतत्वस्य आवश्यकता कथम् उद्भूता इति पृच्छति। तदा इन्द्रः
अमरत्वसम्पादनम् अमृत प्राप्त्या बहुकालपूर्वमेव अमरत्वं सम्पादितं किल देवैः, इदानीं कथं भवताम् अमरत्वसम्पादनं कथं मया शक्यते इति आश्चर्येण पृच्छति कचः।
तदा इन्द्रः यदा पूर्वं स्वीकृतम् औषधम् इदानीं प्रयोजनाय न भवति, तथा अस्माभिरपि पूर्वमेव अमृतं सम्पादितम्, इदानीं तु तस्य प्रयोजनं न वर्तते इति वदति सः। अतः भवान् अमृतत्वसम्पादनाय सहायं करोतु इति पृच्छति।
एतद् कथं करणीयम् इति स्पष्टं कर्तुम् आरम्भतः क्षीरसागरमथन कथां पुनः इदानीं स्मृत्वा तद् अमृतलब्धेः परम् अमृतं न प्राप्तम् इति कारणेन
तेषाम्
असुराणाम् ईर्ष्या जाता। ईर्ष्यावशात् पुनः पुनः देवलोकं क्रीडयन्ति स्म असुराः।
युद्धमपि सञ्जातं तेषां मध्ये।
असुराः अपि देवान् मारयन्ति स्म,
देवाः अपि असुरान्
मारयन्ति, किन्तु
शुक्राचार्यस्य मन्त्रबलेन हताः अपि राक्षसाः पुनः जीवनं प्राप्य आगत्य पुनः युद्धं कृत्वा देवान् संहर्तुं प्रयतन्ते। अतः इदानीं भवान् सङ्गीत अभ्यासव्याजेन शुक्राचार्यस्य समीपं गत्वा मृतसञ्जीविनीमन्त्रं प्राप्य आगच्छतु इति कचकुमारं प्रार्थयते।
सम्यक्, कचः अपि शुक्राचार्यस्य आश्रमं गन्तुं सिद्धः जातः। इदानीं तृतीयः अङ्कः शुक्रस्य आश्रमप्रदेशः। वेदम् अधीयानः तिष्ठति, कचः प्रविशति। शुक्राचार्यस्य आश्रमः अस्ति, तत्र शुक्राचार्यः वेदम् अधीयानः नाम पठन् तिष्ठति अस्ति, कचः इदानीं प्रविशति। शुक्राचार्यः कचं पश्यति, जनान्तिकं वदति। जनान्तिकम् इति पदम् अस्ति चेत् नाटके जनाः नाम प्रेक्षकाः तस्य वचनं श्रोतुं शक्नुवन्ति, किन्तु रङ्गमञ्चे ये सन्ति अन्ये नटाः ते श्रोतुं न शक्नुवन्ति इति, अतः जनान्तिकम् इव। अतः कचः इदानीं शुक्राचार्यस्य वचनं श्रोतुं न शक्नोति, केवलं प्रेक्षकाः एव शक्नुवन्ति। जनान्तिकं वदति, कोनु खलु एषः अनुचितबालभावः, उन्मिषद् यौवनाङ्कुरः, समित्पाणिः इत एव अधिगच्छति, सविनयम् आसीदति च माम् इति वदति। कः नु खलु एषः अनुचितबालभावः, उन्मिषद् यौवनाङ्कुरः, समित्पाणिः इतः एव अभिगच्छति नाम समीपम् आगच्छति। इतः मम समीपं एषः कश्चित् कुमारः इदानीम् आगच्छति। कीदृशः अस्ति सः इत्युक्ते अनुचितबालभावः, बालस्य भावः, न उचितः न अपगतः, तस्य मुखे बालभावः सम्यक् दृश्यते। अतः बालभावः नाम पाल्वडीं मुखम् इति वदामः किल तमिळ्भाषायाम्, अनुचितबालभावः, बालभावः न अपगतः तस्मात् मुखात् तस्य मुखात्। उन्मिषत् यौवनाङ्कुरः, किन्तु यौवनस्य अङ्कुरः इदानीमेव उन्मिषति, इदानीमेव बहिः आगच्छति। अङ्कुरः इत्युक्ते स्प्रौट् इति अर्थः, यौवनस्य अङ्कुरः इदानीमेव तस्मिन् किञ्चित् ईषत् दृश्यते। बालभावः न अपगतः, किन्तु यौवनभावः इदानीमेव अङ्कुरवत् दृश्यते। अनन्तरं समित्पाणिः अस्ति, तस्य हस्ते समिदः सन्ति, समिद् स्वीकृत्य समिदं स्वीकृत्य अपि आगतवान् अस्ति सः समित्पाणिः इतः एव अभिगच्छति मम समीपमेव इतः नाम अत्रैव आगच्छति इति उक्त्वा सविनयम् आसीदति च माम् आसीदति नाम उपगच्छति समीपम् आगच्छति विनयपूर्वकं स्य यदा सः कचः आश्रमं प्रविष्टवान् सविनयमपि विनयसहितः अस्ति सः कचकुमारः स विनयमपि माम् उपगच्छति मम समीपम् आगच्छति इति जनान्तिकम् उक्त्वा अनन्तरं प्रकाशं वदति प्रकाशम् इति चेत् सर्वैः यथा श्रोतुं शक्यते तथा इति अर्थः नाम नटाः अपि श्रोतुं शक्नुवन्ति प्रेक्षकाः अपि श्रोतुं शक्नुवन्ति प्रकाशं कस्त्वं बाल हे बाल कः त्वम् इति पृच्छति भवान् कः इति कचकुमारः कराभ्यां कर्णौ स्पृशन् स्वहस्ताभ्यां कर्णौ स्पृशन् किमर्थं कर्णौ स्पृशन्ति कराभ्यां बालाः
अभिवादनं कर्तुं
उपनीतः बालः अभिवादनं कर्तुं यदा ज्येष्ठं पश्यति तदा तस्य अभिवादनं कर्तुं कर्णौ स्पृशन् अभिवादनमन्त्रं वदति तथा कचकुमारः अपि कराभ्यां कर्णौ स्पृशन् स्वहस्ताभ्यां कर्णद्वयमपि स्पर्शनं कुर्वन् बृहस्पतिगोत्रापत्यं कचनामा अहं भोः अभिवादये इति स विनयं स्वपरिचयं कारयति अभिवादनरूपेण मन्त्ररूपेण स्वस्य परिचयं कारितवान् कचकुमारः बृहस्पतेः गोत्रापत्यं गोत्रे आगतवान् अस्मि अहं मम नाम कचकुमारः कचनामा अहम् अभिवादये इति शुक्रः आयुष्मान् भव इति उच्चैः उक्त्वा इदानीम् आत्मगतं नाम स्वस्मिन् एव वदति सः अहो समुदाचारवेदी समुदाचारं यः जानाति सः समुदाचारवेदी नाम आचारं सम्यक् यः जानाति सः समुदाचारवेदी अस्ति एषः एकं ज्येष्ठं दृष्ट्वा कथं व्यवहरणीयम् इति एषः बालः सम्यक् जानाति अतः उचितम् आचारं सः सम्यक् जानाति सर्वथा सुराचार्य अङ्कुरस्य युक्तरूपम् इदं सर्वथा इत्युक्ते बै आल् मीन्स् सुराचार्य अङ्कुरः एषः सुराणाम् आचार्यः सुराचार्यः सुराः नाम देवाः देवानाम् आचार्यः बृहस्पति बृहस्पतेः अङ्कुरः अस्ति एषः बृहस्पतेः बीजम् अस्ति कचकुमारः तस्य युक्तं रूपम् उचितं रूपम् इदं पश्यतु अत्र शुक्राचार्यस्य महान् आदरः वर्तते बृहस्पतौ परस्परं यद्यपि बृहस्पतिः देवानां गुरुः अस्ति शुक्राचार्यः असुराणां गुरुः अस्ति तथापि द्वयोः गुरोः मध्ये वैरीभावः न दृश्यते इति उत्तमः विषयः शुक्राचार्यस्य महान् आदरः बृहस्पतौ अस्ति इति अनेन वाक्येन ज्ञायते सर्वथा सुराचार्य अङ्कुरस्य युक्तरूपम् इदं वदति अपि कुशली भगवान् बृहस्पतिः कुशली अस्ति वा इति पृच्छति कचः बाढं पिता मे अत्र भवन्तं सादरं कुशलम् अनुपयुङ्क्ते मे पिता अत्र भवन्तं सादरं कुशलम् अनुयुङ्क्ते पिता मे अत्र भवन्तं सादरं कुशलम् अनुयुङ्क्ते मे पिता मम पिता बृहस्पतिः अत्र भवन्तम् इति अत्र भवान् इति पदम् एकं पदमस्ति अत्र भवान् इति पदद्वयं नास्ति अत्र भवान् इति एकं पदं सर्वदा कस्मिन् अर्थे प्रयुज्यते इत्युक्ते मान्यः कश्चित् अस्ति चेत् श्लाघ्यः कश्चित् आदरणीयः पूज्यः कश्चित् ज्येष्ठः अस्ति चेत् सः अत्र भवान् इति पदेन अपि व्यवह्रियते आम् एवम् अत्र भवन्तम् इति द्वितीया विभक्त्यन्तं पदं मे पिता अत्र भवन्तं त्वाम् अथवा भवन्तं सादरं कुशलम् अनुयुङ्क्ते इत्युक्ते पृष्टवान् विचारिकरद् इति अर्थः एवं मम पिता बृहस्पतिः अत्र भवन्तं नाम
हिस् हैनेस्
आम् शुक्राचार्यं भवन्तं सादरम् आदरपूर्वकं कुशलं पृष्टवान् शुक्रः नूनं तस्य भगवतो अस्मासु तथाविधः आदरः निश्चयेन भवति अस्मासु तथाविधः आदरः तस्य भगवतः भगवत् भगवान् इति पदस्य षष्ठी विभक्तिः अत्र भगवतः इति बृहस्पतिं सूचयति तस्य भगवतः बृहस्पतेः अस्मासु अस्मा नाम अस्मादृशेषु जनेषु भवान् आदरः निश्चयेन भवति एव, महान् आदरः निश्चयेन भवति एव, तत् तथा आस्ताम्, लेट् इट् बी लैक् देट्। किं नाम तव आगमनकारणं, भवतः आगमनकारणं किम् इति कचकुमारं पृच्छति। विद्याम् अर्थयितुं, विद्यां प्राप्तुम् इति कचकुमारः प्रतिवचनं ददाति। आश्चर्यम् एतत्, कुमारो बृहतां पत्युः विद्यार्थं मत्समीपम् आगतः इति। बृहतां पत्युः, बृहतां पतिः कः?
बृहस्पतिः।
आम्, बृहत् इत्युक्ते वाक् इति अर्थः, अतः बृहताम् इति षष्ठी बहुवचनं, बृहतां पतिः बृहस्पतिः। इदानीं शुक्रः, आश्चर्यम् एतत्, कुमारो बृहतां पत्युः विद्यार्थं मत्समीपम् आगतः इति। कुमारः बृहतां पत्युः विद्यार्थं मत्समीपम् आगतः इति। बृहतां पत्युः कुमारः, बृहत् इति पदस्य वाक् इति अर्थः, अतः वाचां पतिः, बृहतां पतिः, बृहताम् इति षष्ठी बहुवचनम्, एवं वाचां पतिः
बृहस्पतिः,
बृहस्पतिः तस्य, सो बृहतां पति पत्युः इति षष्ठी एकवचनम् अस्ति। बृहतां पत्युः कुमारः कः? बृहतां पत्युः कुमारः, बृहतां पतिः इति बृहस्पतिः, बृहस्पतेः कुमारः कचः, एवं बृहतां पत्युः कुमारः विद्यार्थं पठनार्थं मत्समीपं मम समीपं शुक्राचार्यस्य समीपम् आगतवान् इति आश्चर्यम् एतत् इति शुक्राचार्यः वदति। कचः, पितुः अपेक्षया गुर्वन्तरग्रहणेन विद्या आरूढ अधिगमा भविष्यति इति पूज्यपितृपादाः आमनन्ति। यद्येकविषयप्रवणान्तरङ्गः
यस्याद्यदेकविषयप्रवणान्तरङ्गः
आत्मा च पूर्वजननादनपेतगन्धः
आत्मा च पूर्वजननादनपेतगन्धः
तस्मिन् स एव गुरुणा खलु शिक्षणीयः
तस्मिन् स एव गुरुणा खलु शिक्षणीयः
नूनं भवेदितरदूषरवृष्टिपातः
नूनं भवेदितरदूषरवृष्टिपातः।
पदविभागं करोमि श्लोकस्य। यः स्यात् यद् एकविषयप्रवणान्तरङ्गः आत्मा च पूर्वजननात् अनपेतगन्धः तस्मिन् सः एव गुरुणा खलु शिक्षणीयः नूनं भवेत् इतरत् ऊषरवृष्टिपातः। अत्र इतरदोषरवृष्टिपातः नास्ति, इतरत् ऊषर वृष्टिपातः इति श्लोकस्य पदच्छेदः। अर्थं पश्यामः। यः यः नाम यः
यः कोऽपि
यः कोऽपि यः मनुष्यः एकविषयप्रवणान्तरङ्गः स्यात्। एकस्मिन् विषये प्रवण इत्युक्ते आसक्तिः, इन्क्लिनेशन्, इन्वाल्वमेण्ट् इति अर्थः। तस्य अन्तरङ्गः नाम तस्य मनः यस्मिन् एकस्मिन् विषये आसक्तं स्यात्। कस्मिंश्चित् विषये एकैकस्य मनः निश्चयेन आसक्तं स्यात्। यद् एकविषये प्रवणान्तरङ्गः नाम एकस्मिन् विषये आसक्त अन्तरङ्गः स्यात् कश्चित्। पुनः आत्मा च पूर्वजननात् अनपेतगन्धः नाम जन्मान्तर वासना अस्ति इति वदामः किल, कदाचित् वयं पश्यामः लघु बालकः बहु सङ्गीतं सम्यक् सङ्गीतं गायति, रागानां नामानि अपि वक्तुं शक्नोति, तदा वयं किं वदामः? जन्मान्तरवासना इति वदामः। अतः पूर्वजननात् अनपेतगन्धः, गन्धः वासना न अपगतः, जन्मान्तरवासना यस्य न अपगतः, तादृशः आत्मा अस्ति सः गुरुणा तस्मिन् खलु शिक्षणीयः। सः मनुष्यः केनचित् गुरुणा तस्मिन् विषये, कस्मिन् विषये? यस्मिन् विषये तस्य आसक्तिः अस्ति, तस्य मनः आसक्तम् अस्ति
तस्मिन्नेव विषये सः शिक्षणीयः।
इतोपि एकः विषयः अस्ति, जन्मान्तरसंस्कारः अपि अस्ति चेत् तस्मिन् दृश्यते चेत् तस्मिन् विषये नाम पूर्वजन् जन्मनः वासना इदानीमपि दृश्यते चेत् तस्मिन् विषये एव सः गुरुणा शिक्षणीयः अस्ति, तस्मिन् विषये एव सः पाठनीयः. इतरत् ऊषरवृष्टिपातः भवेत् नूनं, नूनं निश्चयेन. इतरत् नाम अन्यत् सर्वम्. इदानीं यस्मिन् विषये आसक्तिः नास्ति चेत्, तस्मिन् विषये यदि अहं पाठयितुं प्रयत्नं करोमि चेत् तद् तस्य सफलता न भवति. कथमिव भवति? ऊषरवृष्टिपातः इव भवति. ऊषरः इत्युक्ते क्षारभूमिः, नाम साल्टी प्रदेशः, लवणयुक्तप्रदेशः अस्ति. लवणयुक्तप्रदेशे वृष्टिजलं पतति चेत् किमपि प्रयोजनाय भवति वा? न भवति. किमपि सस्य उत्पादनं वा, तस्य तत्र किमपि न, मरुप्रदेशः इव. एवं क्षारभूम्यां वृष्टिपातस्य व्यर्थता यथा भवति, तथा एव आसक्तिं विना यः अस्ति, जन्मान्तरवासना वासनां विना यः अस्ति, सः यस्मिन् विषये आसक्तिः नास्ति, जन्मान्तरवासना अपि नास्ति, तस्मिन् विषये यदि सः शिक्षितः भवेत् भविष्यति, तर्हि ऊषरवृष्टिपातः इव व्यर्थमेव. श्लोकस्य अन्वयः एवं भवति: यः आत्मा यदेकविषयप्रवणान्तरङ्गः, पूर्वजननात् अनपेतगन्धः च स्यात्, सः गुरुणा तस्मिन् एव शिक्षणीयः खलु. इतरत् ऊषरवृष्टिपातः भवेत् नूनम् इति श्लोकस्य अन्वयः. श्लोकस्य सरलार्थः वक्तव्यः चेत् कथं भवति? यस्मिन् एकस्मिन् विषये मनः मनः आसक्तं भवति, पुनः जन्मान्तरवासनायाः अपगतः अपि सः न भवेत्, तादृशः गुरुणा तस्मिन्नेव विषये, यस्मिन् विषये आसक्तिः अस्ति तस्मिन्नेव विषये, यस्मिन् विषये जन्मान्तरवासना अपि अस्ति तस्मिन् विषये एव सः शिक्षणीयः. यदि अन्यविषयं शिक्षयितुं प्रभवति चेत् तद् ऊषरवृष्टिपातः इव भवति. नाम क्षारभूमौ वृष्टेः पातनं यथा व्यर्थतां प्राप्नोति तथा भवति इति. तथा तादृशः पाठः अपि व्यर्थः भवति, गुरोः श्रमः अपि व्यर्थः भवति. कचः स्वगतम्: अहो सूक्ष्मज्ञता आचार्यस्य. सूक्ष्मं जानाति, सूक्ष्मज्ञः अस्ति, तस्मिन् सूक्ष्मज्ञता दृश्यते आचार्ये. नाम तस्य विषयाणां मर्मज्ञानम् अस्ति तस्य इति, तीक्ष्णबुद्धिः अस्ति इति स्वगतम् उक्त्वा इदानीं प्रकाशं वदति. यद्भवते रोचते, रोचते प्रयोगे चतुर्थी विभक्तिः, अतः भवते रोचते. तथापि अत्र भवताम् अनुशासनेन निवेदयामि, ततो देव एव प्रमाणम्. अत्र भवताम् अनुशासनेन, अत्र भवता इति भवता इति अर्थे, अत्र भवता इति एकं पदम्, अत्र तृतीया विभक्त्यन्तं पदम्. अत्र भवताम् अनुशासनेन, भवान् मां पृष्टवान् इति कारणेन, अनुशासितवान् इति कारणेन अहं निवेदयामि, अहं वदामि, ततः देवः एव प्रमाणम्. कुत्र मम आसक्तिः अस्ति, का विषय, का विद्या मह्यं रोचते इति अहं वदामि, अनन्तरं देवः एव प्रमाणं, भवान् एव निश्चयं करोतु. कचः सङ्गीतकलायाः ननुभण, शुक्रः ननुभण, अस्तु वदतु इति. कचः इदानीं वदति: सङ्गीतकलायाः कारकाः प्रत्येकं पूज्यपादाः इति श्रूयते, मम अभिरुचिविषयो अपि सैव, तद् अनुगृह्णन्तु भवन्तः. सङ्गीतकलायाः प्रत्येकं सङ्गीतकलायाः कारकाः पूज्यपादाः भवन्तः एव. नाम सङ्गीतकला कलायाः सर्वेषामपि अंशानां प्रत्येकम् इति सर्वेषामपि अंशानां कारकाः नाम कर्तारः भवन्तः एव इति अहं श्रुतवान् अस्मि. पूज्यपादाः भवन्तः एव इति मया श्रूयते. मम अभिरुचिविषयः अपि सा एव. का सङ्गीतकला एव मम अभिरुचिविषयः, मम इष्टः विषयः अस्ति. तद् अनुगृह्णन्तु भवन्तः, भवन्तः तद्विषये माम् अनुगृह्णन्तु, मां प्रसादयन्तु इति वदति शुक्रः. अहो निस्सङ्कोचं कथितं, सङ्कोचं विना एषः बालः उक्तवान् अस्ति. सङ्कोचं लज्जां विना उक्तवान् अस्ति. तदेव मम अभिमतं, मम अभिमतमपि तदेव मम सम्मतम् इति. अभिमतम् इत्यस्य सम्मतं, मम अभिप्रायः अपि तदेव. स्थीयतां, तिष्ठतु इति उक्त्वा आत्मगतं वदति इदानीं. प्रथमतो अस्य प्रवृत्तिः परीक्ष्या, एषः बालः कीदृशः अस्ति, तस्य चेष्टाः कीदृशाः भवन्ति इति प्रथमम् एषः परीक्षणीयः अस्ति. तदनु विद्यारम्भः, तदनन्तरमेव विद्यायाः आरम्भः करणीयः. सङ्गीतं नाम चनकभक्षणम् इति सहसा आगताः गुरुकुलवासक्लेशम् असहमानाः पलायिताः भवन्ति केचित्. सङ्गीतं नाम चनकभक्षणम्, चनकभक्षणम् इत्युक्ते सुण्डल् इति अर्थः. यथा चनकभक्षणं पक्वस्य चनकस्य भक्षणं यथा बहु सरलतया क्रियते, तथा सङ्गीतमपि बहु सरलतया प्राप्तुं शक्यते इति मत्वा सहसा आगताः, शीघ्रम् आगच्छन्ति जनाः. पुरातनकाले सङ्गीत अभ्यासार्थम् अपि गुरुकुलवासः कृतः इति ज्ञायते. सहसा आगताः गुरुकुलवासक्लेशम् असहमानाः. गुरुकुले वासः चेत् निश्चयेन क्लेशजनकः एव भवति. स्वयमेव वस्त्रप्रक्षालनं करणीयम् अस्ति, स्वयमेव अन्यानि कार्याणि करणीयानि भवन्ति, पितरः न भवन्ति, गुरोः सेवा अपि करणीया अस्ति, गुरोः पत्न्याः सेवा अपि करणीया भवति कदाचित्, किल एवं गुरुकुले महान्तः क्लेशाः सन्ति. तान् क्लेशान् सोढुम् अशक्ताः केचन पलायिताः भवन्ति. ते पलायितपूर्वमेव भयधृताः, भयेन इतः प्रतिगच्छन्ति. अतः एषः बालः प्रथमं परीक्षणीयः अस्ति इति आत्मगतम् उक्त्वा पुनः प्रकाशं वदति, अयि कचकुमार इतः वर्णाश्रमकक्ष्यां प्रविश. कक्ष्या अस्ति तत्र, कृपया भवान् प्रकोष्ठं प्रविशतु इति. कचः अपि यदा आज्ञापयति देवाः इति उक्त्वा स्वगतं स्थानम् उपलब्धम्. इदानीं शुक्राचार्यस्य आश्रमे अहं स्थानं लब्धवान्, मम प्रथमं कार्यम् इदानीं समाप्तम् इति सन्तोषः तस्यापि. द्वौ अपि इदानीं रङ्गमञ्चात् बहिर्गतवन्तौ इति तृतीयः अङ्कः.